एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। निर्वाचनायोगेन प्रतिनिधिसभायाः सदस्यानाम् आगामिनः निर्वाचनस्य पर्यवेक्षणाय चत्वारिंशते संस्थाभ्य पर्यवेक्षणस्य अनुमतिः प्रदत्तास्ति। राष्ट्रियाः अन्तर्राष्ट्रियाश्चेति कृत्वा पर्यवेक्षणाय एकपञ्चाशता संस्थाभिः निवेदनानि प्रस्तुतानि आसन्। प्रदत्तानुमतिषु संस्थासु 37 राष्ट्रियाः 44 अन्तर्राष्ट्रियाश्च वर्तन्ते इति निर्वाचनायोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत्। निर्वाचनायोगेन आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य कृते समानुपातिक प्रणाल्याः पक्षस्य कृते प्रस्तुतानाम् प्रत्याशिनाम् गोप्यसूचीम् प्रस्तुवन्ति राजनीतिक दलानि आहूय तत्र दृष्टायाः त्रुटेः संशोधनस्य कार्यम् विधीयमानम् वर्तते। प्रस्तुतानाम् गोप्यसूचीनाम् अनुसन्धानस्य दलानाम् प्रतिनिधिभिः सह विमर्शनस्य च पश्चात् दृष्टायाः त्रुटेः संशोधनम् कृत्वा गोप्यसूचीम् प्रस्तोतुम् परश्वः 20 दिवसे पत्राचारो विधास्यते इति आयोगेन ज्ञापितमस्ति। आयोगस्य सहायक प्रवक्ता कुलबहादुर जीसी गोप्यसूचीम् प्रस्तुतवद्भिः दलैः समावेशी सिद्धान्तस्य अनुसारेण प्रत्याशिनाम् नामानि प्रेषितानि सन्ति नवेति अनुसन्धानम् कृत्वा सम्बद्ध दलानाम् प्रतिनिधीन् आहूय विमर्शनम् जायमानमस्तीति असूचयत्। आयोगे अस्यैव पौषस्य 13 14 च दिवसयो चतुष्षष्ट्या राजनीतिक दलैः गोप्यसूची प्रस्तुतासीत्। तेषु 22 दलैरेव 10 स्थानानां कृते प्रत्याशिनां मनोनयनं कृतं वर्तते। गृहमन्त्री ओमप्रकाश आर्यालः वर्तमान सर्वकारः विदेह शासनम् संस्थाप्य भ्रष्टाचारमुक्त प्रशासनस्य प्रत्याभूतिम् दापयित्वा सुशासनम् स्थापयित्वा च निर्वाचनस्य माध्यमेन सत्तायाः हस्तान्तरणस्य उद्देश्येन निर्वाचनाय पूर्वकार्येषु प्रवर्तितोऽस्तीति सूचयति। अध्यागमन विभागेन पूर्वे द्युः काष्ठमण्डपे आयोजितम् वैदेशिक नागरिक व्यवस्थापन सूचना प्रणाल्याः शुभारम्भ कार्यक्रमम् सम्बोधयन् मन्त्री अर्यालः नेपालस्य भ्रमणकर्तृणाम् वैदेशिक पर्यटकाणाम् सुरक्षायाम् सूचनायाः सहजीकरणे सम्भावितापराधानाम् नियन्त्रणे नेपालस्य पर्यटनस्य प्रवर्धने च सहयोग प्रापणस्य उद्देश्येन विभागेन क्रियान्विता प्रणाली एषा अत्यन्त प्रभावकारिणी भविष्यतीति विश्वासम् व्यक्तवान्। तदवसरे गृहमन्त्री अर्यालः आसन्न निर्वाचनम् स्वच्छे निष्पक्षे भयरहिते च वातावरणे सम्पादयितुम् सर्वकारः दृढोस्तीति च अवोचत्। संचार सूचना प्रविधि मन्त्री जगदीश खरेलः सर्वकारस्य नागरिक संरक्षणाभियानस्य प्रतिनिधीनां च मध्ये विहिता वार्ता अनुकूला सम्भूतास्तीति भासते। प्रधानमन्त्री मन्त्रिपरिषद कार्यालये पूर्वे द्युः प्रधानमन्त्रिणा सुशीला कार्कीणः अभियानस्य संयोजकस्य दुर्गा प्रसाई पक्षस्य च मध्ये विहितायां वार्तायां समुचित याचनाः पूरयितुं सर्वकारः प्रतिबद्धोऽस्तीति उक्तमासीदिति संचार मन्त्री खरेलः असूचयत्। वार्तायां प्रधानमन्त्री कार्की अभियानस्य याचनां गभीर रूपेण अभिरूचिपूर्वकं गृहीतवती आसीत् चेत् संयोजकेन प्रसाई इत्यनेन अभियानस्य याचनां प्रति सर्वकारस्य ध्यानाकर्षणं विहितमासीदिति ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य 15 महाधिवेशनम् स्थगितम् वर्तते। कांग्रेस दलस्य महामन्त्रीभ्याम् गगन थापा विश्वप्रकाश शर्माभ्याम् पूर्वे द्युः विज्ञप्तिम् प्रकाश्य अस्यैव पौष मासस्य 27 दिवसात् 28 दिवसम् यावत् काष्ठमण्डपे आयोक्ष्यमाणम् दलस्य नियमितम् 15 महाधिवेशनम् पूर्वकार्यस्य समाप्तेः कारणेन समयाभावेन स्थगितम् अस्तीति ज्ञापितम् वर्तते। कांग्रेस दलस्य केन्द्रीय समित्या गतमार्ग शीर्षमासस्य 15 दिवसे पौषमासस्य 27 दिवसात् 28 दिवसम् यावत् नियमितम् 15 महाधिवेशनम् आयोजयितुम् निर्णीतम् आसीत्। नियमित महाधिवेशनस्य स्थगनस्य अनन्तरम् कांग्रेस दलस्य विधानस्य 17 धारायाः द्वितीयोपधारायाः अनुसारेण अस्यैव पौषमासस्य 27 28 दिवसयोः विशेष महाधिवेशनम् आयोजयिष्यते इति च महामन्त्रीद्वयेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। गतस्य आश्विन मासस्य एकोनत्रिंश दिवसे कांग्रेसदलस्य प्रतिशतं चतुःपञ्चाशत् संख्यकैः महाधिवेशन प्रतिनिधिभिः केन्द्रीय कार्यालये विशेष महाधिवेशनम् आयोजयितुं निवेदनं पञ्जीकृतम् आसीत्। अधिकार दुरूपयोगानुसन्धानायोगेन पर्वत जनपदस्य कुस्मा नगरपालिकाया सप्तमवडा क्षेत्रस्य खरेहा स्थाने निर्माणाधीनस्य ज्येष्ठ नागरिक भवनस्य निर्माणे भ्रष्टाचार सम्भूतो स्थिति निश्चित्य चतुर्णां जनानां विरूद्धे काष्ठमण्डपवर्तिनि विशेष न्यायालये भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। कुस्मा नगरपालिकायाः तात्कालिक प्रमुख प्रशासकीयाधिकृतस्य कुमान सिंह गुरूङ इत्यस्य तात्कालिकस्य लेखाधिकृतस्य कृष्णप्रसाद शर्मणः स्थपतेः आशिष शाक्यस्य अन्यस्य एकस्य लालबहादुर मल्लस्य च विरूद्धे भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितमस्तीति आयोगेन ज्ञापितं वर्तते। निर्माण कार्यस्य अभावस्य दशायामपि कुस्मा नगरपालिकया लक्षशः रूप्यकाणि प्रेषितानि वित्त प्रपत्रेभ्य अधिकार रूप्यकाणि प्रदत्तानि चेति दृष्टमस्तीति आयोगेन ज्ञापितं वर्तते। नेपालस्य उत्तरदिशा रसुवागढ़ी अन्तर्राष्ट्रिय सीमा प्रवेश बिन्दु ह्यस्तन दिवसात् पूर्णतः संचालितो वर्तते। गताषाढमासस्य चतुर्विंशे दिवसे भेन्दे खोला नद्यां दुरापन्नेन जलविप्लवेन मैत्री सेतोः प्रवाहणानन्तरं पिहित सीमा प्रवेश बिन्दु ह्यस्तन दिवसात् पूर्णतः संचालितो स्थिति रसुवा जनपदस्य प्रमुख जनपदाधिकारी राजेश पन्थी असूचयत्। कतिपय दिनेभ्य देशस्य तराई क्षेत्रेषु विभिन्नेषु जनपदेषु अत्यधिक शैत्येन हिमालय क्षेत्रेषु उच्च पर्वतीय क्षेत्रेषु च हिमवृष्ट्या च जनजीवनम् अत्यधिकं प्रभावितं वर्तते। शैत्येन तराई मधेश क्षेत्रस्य प्रायः विंशतिर्जनपदाः प्रभाविताः सन्ति। तराई क्षेत्रस्य कतिपय जनपदेषु आदिनं कुहरा व्याप्तो भवतीति हेतो बालबालिकाः वृद्धाः दीर्घरोगिणश्च अत्यधिकरूपेण प्रभाविताः वर्तन्ते। इति समाचाराः।